अथ दशमोऽध्यायः श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वच यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया न मे विदुः सुरगणा प्रभवं न महर्षय अहमादेर्देवानां महर्षीणां स सर्वश यो मामजमनादिं च वेत्ति लोकमहेश्वरम् असम्मूढसमर्थेषु सर्वपापैः प्रमुच्यते बुद्धिर्ज्ञानमसम्मोह क्षमा सत्यं दमः शमः सुखं दुःखं भवो भावो भयं चाभयमेव च अहिंसा समता तुष्टि स्तपोदानं यशो यश भवन्ति भावभूतानां मत्त एव पृथग्विदा महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा मद्भावा मनसा जाता येषां लोक इमाः प्रजा एतां विभूतिं योगं च नाम यो वेत्ति तत्त्वतः सोऽविकम्पेन योगेन युज्यते नात्र संशय अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते इति मत्वा भजन्ति मां दुराभावसमन्विता मच्चित्ता मद्यतप्राणा बोधयन्तः परस्परम् कथयन्तश्च मां नित्यं तोष्यन्ति च रमन्ति च तेषां सततयुक्तानां भजतां प्रीतिपूर्वकं ददामि बुद्धियोगं तं येन मापुपयान्ति ते तेषामेवानुकम्पाथ मम ज्ञानजं तम नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता अर्जुनोवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् पुरुषं शाश्वतं देव्यमादिदेवमजं विभु आहो स्वामृषयः सर्वे देवर्षिर्नारदस्तथा असितो देवलो व्यास स्वयं चैव ब्रवीषि मे सर्वमेतद्धृतं मन्ये यन्मां वदसि केशव न हि ते भगवान् व्यक्तिं विदुर्देवान् दानवा स्वयमेवात्मनात्मानं वेत्थत्वं पुरुषोत्तम भूतभावन भूतेश देवदेव जगत्पते वक्तुमर्हस्य शेषेण दिव्याया आत्मविभूतयो याभिर्विभूतिभिर्लोकानिमास्तु व्याप्य तिष्ठसि कथं वेद्यामहं योगे स्वाक्षरा परिचिन्तय केषु केषु च भावेषु चिन्त्योऽसि भगवन् मया विस्तरेणात्मनो योगं विभूतिं च जनार्दन भूय कथयथेक्तेर्हि श्रीमदो नास्ति मे मृतम् श्रीभुवनुवच हन्तते कथयिष्यामि दिव्याह्यात्मविभूतय प्राधान्यतः कुरु श्रेष्ठ नास्यन्तो विस्तरस्य मे अहमात्मा गुडाकेश सर्वभूताशरस्थित अहमादेशमध्यं च भूतनामन्त एव च आदित्यानामहं विष्णु ज्योतिषां रविरंशुमान् मरीचिर्मरुतामस्मि नक्षत्राणामहं शशि वेदानां सामवेदोऽस्मि देवानामस्मि वासव इन्द्रियाणां मनस्तस्मि भूतानामस्मि चेतना रुद्राणां शङ्करस्तस्मि वेत्तेषु यक्षरक्षसाम् वस्तूनां पावकस्तस्मि मेरुषिकरिणामहं पुरोधुषां च मुख्यं मां वृद्धि पार्थ बृहस्पतिं सेनानीनामहं स्कन्द सरसामस्मि सागर महर्षीणां भृगुरहं विरामास्म्येकमक्षरं यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारद गन्धर्वाणां चेत्वरथ सिद्धानां कपिलो मुनि उच्चैः श्रवसमश्वानां विद्धि मामृतोद्भवम् ऐरावतं गजेन्द्राणां नराणां च नराधिपाम् आयुधानामहं वज्रं धेनूनामस्मि कामधो प्रजनस्वास्मि कान्दर्प सर्पाणामस्मि वासुकी अनन्तस्वास्मि नागानां वरुणो यादृशामहम् पितॄणामर्यमासस्मि यमसंयमतामहम् प्रह्लादस्वास्मि दैत्यानां कालकलदतामहम् मृगाणां च मृगीर्योऽहं वैनतेयस्य पक्षिणाम् पवन पवतामस्मि रामशस्त्रभृतामहं झषाणामकरस्वास्मि श्रोतसामस्मि जाह्नवी सर्गनामादिरन्तस्य मध्यं चैवाहमर्जुन अध्यात्मविद्या विद्यानां वाद प्रवदतामहम् अक्षराणामकारोऽस्मि द्वन्द्वसामासिकस्य च अहमेवाक्षरः कालो धाताहं विश्वतो मुख मृत्युः सर्वहरस्ताः मोद्भवश्च भविष्यताम् कीर्तिः श्रीर्वाक्चनारीणां स्मृतिर्मेधाधृते क्षमा बृहत्साम तथा साम्नां गायत्री छन्दसामहं मासानां मार्गशीर्षो ऋतूनां कुसुमाकर द्यूतं चलयतामस्मि तेजस्तेजस्विनामहम् जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् कृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जय मुनीनामप्यहं व्यास कवीनामुषना कवि दण्डोदमयतामस्मि नीतिरस्मजिगीषतां मौनं चैवास्मि गुह्यनां ज्ञानं ज्ञानवतामहम् यच्चापि सर्वभूतानां बीजं तदहमर्जुन न तदस्ति विना यस्यात् मया भूतं चराचरं नान्तोऽस्ति मम दिव्यानां विभूतीनां परं तव एष तु देशतः प्रोक्तो विभूतिर्विस्तरो मया यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा तत्तदेवावगच्छत्वं मम तेजोंशसम्भवम् अथवा बहुनेतेन किं ज्ञातेन तवार्जुन वेष्टव्याहमिदं कृष्ण मेकांशेन स्थितो जगत् मेकांशेन स्थितो जगत् ॐ तत्सत् श्रीमद्भगवद्गीतास्तु शास्त्री श्रीकृष्णार्जुनसंवादे विभूतियो नाम दशमः।